आवेदनपत्रस्य हस्ताक्षरं लेखकः जनार्दन हेगडे। स्वकीयां घटीं पश्यन् रिचर्डसन् अरियोल् वर्यः रूक्षस्वरेण मातुलानीम् उक्तवान्, अम्ब, मम इदानीं समयावकाशः सर्वथा नास्ति, यत् वक्तव्यं तत्त्वरया वदतु भवती इति। एतत् श्रुतवत्याः वृद्धायाः अश्रूणि आगतानि। लक्षाधीशस्य एतस्य ननान्द्रपुत्रस्य मेलनार्थं प्रतीक्षां कृतवती आसीत् सा। द्वारापालकस्य तर्जनमपि सोढवती आसीत्। यं सा बाल्ये महता वात्सल्येन पोषितवती, सः एवं निष्ठुरं व्यवहरेदिति कल्पना अपि न आसीत् तस्याः। सामान्यवेषधारिणीं मां द्वारापालकादयः न अभिज्ञातवन्तः स्युः नाम, किन्तु रिचर्डसनः तु मां दृष्ट्वा आनन्दम् अनुभवन् प्रीत्या व्यवहरिष्यति इति चिन्तितवती आसीत् सा। महान् आदरः न प्रदर्श्येत चेदपि सम्भाषणे तु कोऽपि क्लेशः न भवेदेव इति तस्याः चिन्तनमासीत्। किन्तु इदानीं रिचर्डसनस्य व्यवहारं दृष्टवती सा दिग्भ्रान्ता जाता अस्ति। निर्निमेषं तमेव पश्यन्ती स्थितवती सा। क्षणकालानन्तरं रिचर्डसनः पुनरपि पूर्वतनेन कठोरेण स्वरेण एव उक्तवान्, अम्ब, धनविषयकं सम्भाषणं करणीयमिति भवत्याः मनसि अस्ति चेत् तस्य प्रस्तावः एव मास्तु। अहं बन्धुभ्यः एकां वराटिकामपि न ददामि इति। यदि विलम्बः क्रियेत तर्हि पुनः अवकाशः न लभ्येत इति विचिन्त्य वृद्धा कासेन कण्ठं समीकृत्य आत्मनि धैर्यं पूरयन्ती उक्तवती, धनं प्रार्थयितुं न, अपि तु किञ्चित् निवेदयितुम् अहम् आगता। काचित् विज्ञप्तिः अस्ति मदीया। का सा विज्ञप्तिः? शीघ्रं वदतु तावत्। कञ्चित् धनिकं द्रष्टुमिदानीं गन्तव्यमस्ति मया। मम ज्येष्ठः पुत्रः श्यामुवेलः वाणिज्यशास्त्रपरीक्षायां सर्वप्राथम्यं प्राप्तवान् अस्ति। BL परीक्षायामपि सः प्रथमश्रेणीं प्राप्तवान् अस्ति। सदाचारवान् सः, सदापि श्रद्धया कार्यं करोति। सुरापाने द्यूते वा तस्य प्रवृत्तिः नास्ति। युवतीनां मुखं न पश्यति सः। तस्मै स्वस्य कार्यालये एकम् उद्योगं दापयतु भवान् कृपया। सः अवश्यं भवतः लाभं वर्धयिष्यति। किन्तु मम वित्तकोषे किमपि स्थानं रिक्तमस्ति वा न वा इति न जानामि खलु अहम्। स्थानद्वयं रिक्तमस्ति इति श्रूयते। तदर्थं पत्रिकायां प्रकटनमपि प्रकाशितमस्ति। तत्र कस्मैचित् एकस्य स्थानस्य दानं निश्चितमस्ति एव। अन्यत् स्थानमस्ति एव खलु? अस्तु नाम, परिशीलयिष्यामि। सः आवेदनपत्रं प्रेषयतु नाम। तदीयम् आवेदनपत्रम् आगमनसमये एव आनीतवती अस्मि इति वदन्ती वृद्धा पुत्रेण सज्जीकृत्य दत्तम् आवेदनपत्रम् उत्पीठिकायाः उपरि स्थापितवती। रिचर्डसनस्य अनुज्ञां प्राप्य धन्यताभावेन ततः निर्गतवती सा। यदा तया गृहात् बहिः पदं स्थापितं तदा एव रिचर्डसनः कोपेन आवेदनपत्रं शतधा क्षिप्त्वा अवकरकण्डोले क्षिप्तवान्। वराकाः, बान्धवाः, एतेषां सहवासेन अलम् इति स्वगतमुक्तवान् सः। किन्तु किञ्चित् कालानन्तरं तस्य मनः शान्तं जातम्। बाल्यजीवनं तस्य स्मृतिपथमागतम्। बाल्ये तया वृद्धया प्रदर्शितः स्नेहः, सुमधुरः व्यवहारः च तेन स्मृतः। एषा मम बाल्ये मयि नितरां स्निह्यति स्म। प्रतिदिनं रुचिकरं खाद्यं ददाति स्म। शिशुं मां तु सदा लालयति स्म। वात्सल्यवर्षणं करोति स्म। एवं बहुधा उपकृतवती एषा मया प्रत्युपकारेण तोषणीया एषः मम धर्मः मया दोषः कृतः एतस्याः पुत्रस्य आवेदनपत्रं मया न छेत्तव्यमासीत् एतस्याः पुत्रः स्वयोग्यतायाः बलेन मम वित्तकोशे उद्योगं यदि प्राप्नुयात् तर्हि मम का हानिः भवेत् कश्चिद् उद्योगी तत्र नियोक्तव्यः एव एतेन विचारेण उद्विग्नः रिचर्ड्सनः स्वस्य कार्यदर्शिनमाहूय आदिष्टवान् अर्धघण्टां यावत् न कोऽपि अन्तः प्रेषणीयः इति ततः द्वारं पिधाय छिन्नस्य आवेदनपत्रस्य भागान् अवकरकण्डोलात् अन्विष्य स्वीकृत्य सः उत्पीठिकायाः उपरि प्रसारितवान् एकैकं खण्डं योजयित्वा आवेदनपत्रस्वरूपं कल्पितवान् तदाधारेण तस्य आवेदनपत्रस्य प्रतिकृतिं सज्जीकृतवान् सः ततः कार्यदर्शिनमाहूय सः उक्तवान् एतद् आवेदनपत्रं स्वीक्रियताम् आवेदकः मम बन्धुः किन्तु उद्योगदानसमये एषः सम्बन्धः न परिगणनीयः योग्यतामात्रं द्रष्टव्यं पक्षपातः न आचरणीयः सन्दर्शनसमये एषः उत्तीर्णः भवेत् चेदेव एतं स्वीकर्तुम् अर्हन्ति भवन्तः नो चेत् न इति केषाञ्चित् दिनानाम् अनन्तरं सा वृद्धा रिचर्ड्सनस्य गृहं पुनः आगता मम पुत्रः सन्दर्शनपरीक्षायां प्रथमं स्थानं प्राप्य अपि उद्योगं न प्राप्तवान् तत्स्थाने इदानीं नियुक्तः तु समग्रे ग्रामे दृप्तः दुष्टः इति प्रसिद्धः अस्ति धनिककुले जातस्य तस्य उद्योगः अनिवार्यः अपि न आसीत् इति उक्तवती सा रिचर्ड्सनः तां सान्त्वयन् उक्तवान् चिन्ता मा करोतु भवती किं प्रवृत्तमिति सर्वं परिशीलयिष्यामि इति वृद्धायाः निर्गमनस्य अनन्तरं सः कार्यदर्शिनमाहूय पृष्टवान् पूर्वं मया मम बन्धोः कस्यचन आवेदनपत्रं दत्तमासीत् खलु उद्योगे नियुक्त्यर्थं तस्य योग्यता किं न आसीत् इति आसीत् सः एव सन्दर्शने प्रथमं स्थानं प्राप्तवान् आसीदपि किन्तु किं किन्तु कोपमिश्रितेन स्वरेण पृष्टवान् रिचर्ड्सनः येषां नियुक्तिः क्रियते तेषां हस्ताक्षरस्य परीक्षा क्रियते अस्माभिः नियमानुसारं भवतः बन्धोः आवेदनपत्रस्य अक्षराणां परीक्षा अपि कारिता अस्माभिः हस्ताक्षरशास्त्रज्ञाः उक्तवन्तः यत् आवेदनपत्रे यानि अक्षराणि सन्ति तेषां लेखकः द्यूतकरः मद्यव्यसनाधीनः दुराचारः च भवति इति अतः तं वयं न स्वीकृतवन्तः इति विवरणं दत्तवान् कार्यदर्शी एतत् शृण्वतः रिचर्ड्सनस्य हस्ततः तामाकुनलिका अधः पतिता सः शून्यदृष्ट्या कार्यदर्शिनः मुखं पश्यन् स्तब्धतया उपविष्टवान् इति